इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य महाराष्ट्रस्य मुम्बई पालघरयोः यात्रां करिष्यति। यात्रावधौ प्रधानमन्त्री पालघरस्य शिडको उद्याने विभिन्नानां विकास परियोजनानां उद्घाटनम् आधारशिला च स्थापयिष्यति। श्रीमोदी प्रायः षष्ठ्योत्तर पञ्चशताधिक एकसहस्र कोटिरूप्यकाणां व्ययेन निर्मितस्य अष्टादशाधिक द्विशतं यावत् मत्स्यपालन परियोजनानाम् उद्घाटनम् आधारशिलां च स्थापयिष्यति। सः मुम्बई नगरस्य जियो वर्ल्ड कन्वेंशन सेंटर इत्यत्र चतुर्विंशत्यधिक द्विसहस्रतम वर्षस्य ग्लोबल फिनटेक फेस्ट इति कार्यक्रमम् अपि सम्बोधयिष्यति। ह्यः पालघरे वार्ताहरान् सम्बोधयन् केन्द्रीय पत्तन नौकायान जलमार्ग मन्त्री सर्वानन्द सोनोवालः अवदत् यत् बधावन पत्तनम् राज्यस्य देशस्य च विशिष्ट परिचयं करिष्यति। अपरपक्षे प्रधानमन्त्री अद्य केरलस्य अलपुझा नगरे अर्थुंगल मत्स्यपत्तनम् निर्माणस्य तृतीयचरणस्य उद्घाटनम् आभासीय माध्यमेन करिष्यति। ह्यः विशाखापत्तनम् नगरे रक्षामन्त्रिणः राजनाथसिंहस्य उपस्थितौ द्वितीयम् अरिहन्तवर्गस्य जलमग्न पोतम् आईएनएस अरिघात इति भारतीय नौसेनायां समाविष्टम्। रक्षामन्त्री स्वसम्बोधने विश्वासं प्रकटितवान् यत् अरिघात भारतस्य प्रमाणोत्रिकम् अधिकं सुदृढं करिष्यति, प्रमाणोन्निरोधनं वर्धिष्यति, क्षेत्रे सामरिक समन्वयं शान्तिं च स्थापयितुं साहाय्यं करिष्यति तथा च देशस्य सुरक्षायां निर्णायक भूमिकां निर्वहति। आईएनएस अरिघातस्य निर्माणे उन्नत प्रौद्योगिकी, विशिष्ट सामग्री, अत्यन्तं कुशलं निर्माणशैली च आसीत्। आईएनएस अरिहन्तस्य आईएनएस अरिघातस्य च उपस्थितौ भारतस्य संभाव्य विरोधीनां निवारणस्य, राष्ट्रहितस्य, रक्षणस्य च क्षमता वर्धते। त्रिपुरा सर्वकारेण सम्पूर्णं राज्यं प्राकृतिक आपद प्रभावित क्षेत्रम् इति घोषितम्। यद्यपि अन्तामन्त्रालय केन्द्रीय दलम् अत्यन्तं प्रभावितेषु स्थानेषु मूल्यांकनं कुर्वदस्ति। गोमती दक्षिण त्रिपुरा मण्डलयोः प्रभावितस्थले एव निरीक्षणम् आरब्धम्। अन्तामन्त्रालय केन्द्रीय दलः अद्य खोवाई सेपाही जाला मण्डलयोः भ्रमणं करिष्यति, यो हि वर्षा जलाप्लवेन च प्रभाविताः। अन्तिम सूचनां प्राप्तिं यावत् द्वात्रिंशत् जनाः स्वप्राणान् त्यक्तवन्तः। एतस्मिन् समये जलाप्लवेन जलसम्पदः दूषिताः सन्ति, अतः जलजन्यरोगस्य प्रकोपस्य च अधिक सम्भावना विद्यते। स्वास्थ्यविभागः स्वास्थ्यशिविराणां सञ्चालनं निरन्तरं कुर्वदस्ति, अपि च पेयजलं स्वच्छताविभागेन जलजन्यरोगाणां समाह्वानानि न्यूनीकर्तुम् अपशिष्टानां सुरक्षितनिष्कासनं सुनिश्चित्य मानकसञ्चालनप्रक्रियाः इति निर्गताः सन्ति। फिच रेटिंग्स इत्यनेन भारतस्य सार्वभौम ऋणस्य रेटिंग बीबीबी माइनस इति स्थिरदृष्टिकोणेन पुनः यथावदेव स्थापिता। वैश्विक रेटिंग एजेंसी इत्यनेन अद्य प्रकाशिते स्वीय प्रतिवेदने देशस्य सुदृढ मध्यमकालीन वृद्धि सम्भावनायाः, सुदृढ बाह्य वित्त स्थितेः च श्रेय प्रदत्तः। फिच इत्यनेन भारतस्य सकल राष्ट्रिय उत्पाद वृद्धिः वित्तीय वर्षे पञ्चविंशत्यधिक द्विसहस्रतमे वर्षे 7.2%, षड्विंशत्यधिक द्विसहस्रतमे वित्तीय वर्षे 6.5% च इति अनुमानितम्। पेरिस पैरालम्पिक्स इति क्रीडाकुम्भे भारतीय मिश्रित संकुलं शीतल देवी राकेश कुमारयोः लक्ष्यभेद दलेन 99.3% इति संयुक्तांकैः नूतन पैरालम्पिक कीर्तिमानं निर्मितम्।